तर्हि अद्यतनविषयः अस्ति स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति किञ्चित् गतवर्गे दृष्टवन्तः. तत्र स्नेहः पिण्डीभावं प्रति निमित्तकारणम् इति उच्यते, यतोहि तत्र सम्बन्धः अस्ति स्वाश्रयसंयुक्तत्वसम्बन्धः स्नेहस्य कार्याधिकरणे इति कृत्वा. तत्र कार्याधिकरणम् इति पिष्टमस्ति, पिष्टे पिण्डीभावः अस्ति, तर्हि स्नेहः जले भूत्वा पिष्टेन सह तस्य सम्बन्धः स्वाश्रयसंयुक्तत्वसम्बन्धः इति आगच्छति. अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणम् इति वदामः. तस्मिन्नेव क्रमे अन्यानि निमित्तकारणानि कुत्र कुत्र सन्ति इति उदाहरणानि दृष्ट्वा चक्रदण्डादीनां घटं प्रति निमित्तकारणत्वम् इति आगतमासीत्. तर्हि अत्र जयन्ती भगिनी किञ्चित् वदति वा, घटनिर्माणस्थले कार्याधिकरणं किं स्यात्?
हा, घटनिर्माणस्थले कार्याधिकरणं तु कपालः, उदाहरणानि वक्तव्यं.
अस्तु अस्तु, तर्हि घटः इति कार्यं, कार्याधिकरणं कपालः, अपि च कपालः कारणमपि. तर्हि चक्रं, चक्रम् इति कीदृशं कारणं घटं प्रति?
चक्रम् इति निमित्तकारणमेव. किमर्थं चेत् चक्रम् इति कार्याधिकरणे अस्ति, परन्तु केन सम्बन्धेन भवति? संयोगसम्बन्धेन चक्रं कपाले अस्ति, साक्षात् सम्बन्धः एव. अतः तत्र तादृशः दृष्टान्तः समवायिकारणे वा असमवायिकारणे न दृश्यते इति कारणात् संयोगसम्बन्धः इति अस्ति कारणकार्याधिकरणयोः. कारणम् कार्यम् इति घटः, तत्तु समवायसम्बन्धः एव अस्ति, अतः चक्रस्य निमित्तकारणत्वं साधयामः.
समीचीनम्, अस्तु. तर्हि चक्रं तु साक्षात् अस्ति कपाले कार्याधिकरणे. कुतश्चित् ध्वनिः. अस्तु, तर्हि भगिनि अधुना दण्डः कीदृशकारणम् अपि च किञ्चित् वदति वा कार्याधिकरणे केन सम्बन्धेन स्यात् इति?
दण्डः प्रथमं तु दण्डः चक्रेस्मिन् यः यत् छिद्रम् अस्ति तस्मिन् स्थापयामः, साक्षात् कार्याधिकरणं नाम कपाले न स्थापयामः, यतोहि कपालस्य भङ्गं भवति सम्पर्केन. अतः दण्डः प्रथमं चक्रे, पुनः चक्रस्य चक्रस्य विद्यमानं कपाले. अतः परम्परया दण्डचक्र प्रथमं दण्डचक्रयोः संयोगसम्बन्धः, पुनः चक्र कपालयोः संयोगसम्बन्धः इति. अतः परम्परया कपालः क्षम्यतां दण्डः कपाले स्वसंयोगसंयुक्त संयोग
संयुक्तत्वसम्बन्धः
इत्युक्ते पुनः तस्य नामकरणम् अस्ति स्व
हा हा हा, भवती यदुक्तवती तदपि सत्यं स्यात् स्यात्, किन्तु अत्र किञ्चित् भिन्नरीत्या प्रदर्शितं कीदृशसम्बन्धः इति. तद्वाक्यं पठित्वा विवृणोति वा? स च
परम्परासम्बन्धः स्वजन्य भ्रमिजन्य भ्रमिमत्ता रूपः इत्युक्ते कपाल दण्डः दण्डेन जन्यः जन्या अस्ति भ्रमिः, चक्रे भ्रमिः जन्या भवति, पुनः सा तया जन् तया भ्रम्याः जन्यया भ्रमिः जाता अस्ति.
कुत्र
कुत्र चक्रे इति वा? एकनिमिषं भगिनि.
आरम्भे एवं करोतु, स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः.
स्व इति स्वेन इत्युक्ते अत्र दण्डेन जन्या भ्रमिः.
तत्तु
दण्डेन जन्या भ्रमिः चक्रे वर्तते.
पुनः हा समीचीनं. तर्हि स्वजन्यभ्रमि इत्युक्ते स्वम् इति दण्डः स्वजन्यभ्रमिचक्रे, तत् समीचीनं. पुनः ततः अग्रे पठति चेत् स्वजन्यभ्रमिजन्यभ्रमि.
पुनः स्वेन दण्डेन जन्या भ्रमिः चक्रे वर्तते. पुनः चक्रे या भ्रमिः अस्ति तेन कपाले भ्रमिः जातः. अतः परम्परया दण्डकपालयोः स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः सम्बन्धः वर्तते.
हा अत्र वस्तुतः स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः इति पुल्लिङ्गे अस्ति खलु. हा तर्हि भ्रमिमत्तारूपः परम्परासम्बन्धः इति आगच्छति. तत्र पदं किञ्चित् विश्लेषणं करोति वा पदस्य?
भ्रमिमत्ता इति वा? भ्रमिमत्ता इति मत्वप्रत्ययः अस्ति. भ्रमिमान् इति कपालः पुल्लिङ्ग अस्ति, अतः कपालः भ्रमिमान् अस्ति. भ्रमिमत्ता इति स्वभावधर्मः कपाले अस्ति इति भ्रमिमत्वं कपाले वा भ्रमिमत्ता कपाले.
हा हा बहु समीचीनम्. अतः एव सः सम्बन्धः स्वजन्य भ्रमिजन्य भ्रमिमत्ता रूपः इति उक्तम्. समीचीनमस्ति. अत्र कस्यचित् प्रश्नः वा? अस्तु, नूतनतया केचन आगतवन्तः इति भाति. के सन्ति?
नमस्ते भगिनी, शुकवनम्.
नमस्कारः महोदय. अनन्तरं
वर्धिनी अस्मि महोदय.
नमस्ते भगिनि, अजितः.
नमस्कारः वर्धिनी भगिनी, अजितः महोदय खलु. अस्तु, तर्हि इतः अग्रे सरेम. निमित्तकारणस्य इतोपि एकम् उदाहरणं वयं दृष्टवन्तः. दण्डः अपि घटं प्रति निमित्तकारणं कथं स्यात् इति. तर्हि इतः अग्रे तर्हि मूलविषयस्तु स्नेहस्य निमित्तकारणत्वम् इति अस्ति खलु. तर्हि ततः अग्रे अग्रिमपरिच्छेदे
भगिनि, तत्पूर्वं भगिनि किञ्चित् चिन्तनं. स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः इति तु सत्यमेव, किन्तु यदा वयं दण्डं छिद्रे स्थापयामश्चेत् तत्र भ्रमिः न जायते किल? दण्डमपि किञ्चित् किं वदामः, तत् दण्डे अपि भ्रमिः जायेत्.
अस्तु,
तथा एव दण्डे अपि भ्रमिः जायेत्, तथापि तेन एव चक्रे भ्रमिः जायते, तेन कपाले भ्रमिः जायते.
हा प्रायः अत्र स्वजन्यभ्रमिः इति भ्रमि इति कार्यं खलु, भ्रमि भ्रमणं कार्यं क्रिया. प्रायः अहं चिन्तयामि सा क्रिया उभयत्र भवेत् इति, दण्डे अपि चक्रे अपि इति वा भवतः विवक्षा?
हा यदि दण्डे अपि दण्डे भ्रमिः जायेत् इति निश्चयेन तत् भवितव्यं, नो चेत् यदा वयं छिद्रे केवलं स्थापयामश्चेत् तत्र न भ्रमिः न कुर्मः चेत् किमपि न जायते इति कृत्वा, यदि तस्य दण्डस्य भ्रमणमपि
आवश्यकमेव
सम्बन्धे वक्तव्यं चेत् कथं वदामः इति मम प्रश्नः.
तर्हि अत्र मम चिन्तनमस्ति यद् स्वजन्यभ्रमिः इति उच्यते खलु.
आम्,
तत्र स्वम् इत्युक्ते दण्डः, स्वेन जन्यभ्रमिः वस्तुतः सा भ्रमिः दण्डे अपि अस्ति इति मम चिन्तनं. तर्हि कथं वदेम, भवान् किं चिन्तयति?
हा इत्यपि अवगन्तुं शक्यते, नो चेत् यदि दण्डे भ्रमिः न जायते स्वजन्यभ्रमिः इति न वक्तुं शक्यते इति कारणात्.
सत्यं प्रायः स्यात् स्वजन्यभ्रमिः
अत्र दत्तमस्ति अतः स्वजन्यभ्रमि चक्रनिष्ठभ्रमि तज्जन्याभ्रमि कपालनिष्ठभ्रमि दत्तमस्ति विस्तरेव
हा दत्तमस्ति भगिनि किन्तु महोदय वदति यद् सा एव भ्रमिः अथवा भ्रमणक्रिया दण्डे अपि स्यात् दण्डः अपि किञ्चित् न भ्रमति चेत् चक्रः न भ्रमति इति महोदयस्य विवक्षा
आसीत् अत्र अस्ति भगिनि यदा सरला भगिन्या उक्तं किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति इति अस्ति किल तदेव मम आशयः आसीत् दण्डभ्रमणे सति इत्युक्ते यदा भवत्या उक्तं स्वजन्यभ्रमिः इति द्वयमपि सूचयति दण्डस्य भ्रमणमपि अपि च चक्रस्य भ्रमणं
हा एक एव भ्रमि खलु
इत्युक्ते स्वम् इत्युक्ते अत्र दण्डभ्रमिः इति अपि वक्तुं शक्नुमः खलु
न स्वम् इति दण्डः किन्तु स्वजन्यभ्रमिः इति दण्डभ्रमिः अपि स्यात् इति दण्डेन जन्यभ्रमिः इति
दण्डेन जन्य इति एकं दण्डे जन्य दण्डे यद् भ्रमिः अस्ति तदपि
अस्तु तर्हि किं वक्तुमिच्छन्ति स्व स्वभ्रमिः इति वा जयन्ति भगिनि
अत्र महोदयस्य प्रश्नः अस्ति स्पष्टतया वक्तव्यं भवति यत् दण्डे अपि भ्रमिः जाता भ्रमिः अस्ति इति तादृशी आवश्यकता चेत् स्व इति दण्डभ्रमिः इति वयं स्वीकर्तुं शक्नुमः दण्डभ्रमिजन्य भ्रमिमत्ता रूपः इति
किन्तु भगिनि यदा तादृशं स्वीकुर्मश्चेत् निमित्तकारणं तु दण्डभ्रमिः एव भवति न तु दण्डः इदानीम् अस्माकं लक्ष्यमस्ति दण्डस्य निमित्तकारणं साधनीयम् इति किल
भ्रमि दण्डेन विना न भवति
तर्हि हा सा दण्डभ्रमिः कथं वक्तव्यम् इति प्रश्नः खलु
प्रायः इतोपि स्पष्टतया वक्तव्यं चेत् स्वभ्रमिः स्वजन्यभ्रमिः जन्यभ्रमिमत्तारूपः इति प्रायः
अस्तु मम विचारे तु स्वजन्यभ्रमिः उभयं सूचयति इत्युक्ते एका एव भ्रमिः चक्रे अपि दण्डे अपि इति मम चिन्तनम् अस्तु
एका भ्रमिः भिन्नम् अस्ति किल भगिनि चक्रे यत् यद्भ्रमणम् अस्ति तत् कार्यं तस्य कारणं तु दण्डे यद्भ्रमिः अस्ति तत्
ओ अस्तु तथा वदति भवान् इदानीं तर्हि हा उभय द्विवारं वक्तव्यं स्यात् खलु स्वजन्यभ्रमिजन्य हा स्वजन्यभ्रमिः दण्डजन्यभ्रमिः या दण्डे अस्ति तदा भ्रमिः कारणं भूत्वा चक्रं भ्रमयति इति भवतः चिन्तनं स्यात् तर्हि किन्तु अत्र विवक्षा अस्ति
तेन चक्रभ्रमणेन कपाले अपि भ्रमः भ्रमिः वर्तते
हा परन्तु अत्र विवक्षा अस्ति यत् दण्डः साक्षात् चक्रे भ्रमिजनयति इति दण्डे विद्यमानभ्रमिः चक्रे भ्रमिजनयति इति न अपि तु दण्डः साक्षात् भ्रमिम् अथवा भ्रमणं जनयति इति
आम् इति वदामश्चेत् यदि वयं छिद्रे दण्डं स्थापयामश्चेत् एव तत्र भ्रमिः
अवगच्छामि दण्डभ्रमणम् अपि स्यात् इति
आं दण्डभ्रमणम् आवश्यकं नो चेत् चक्रे भ्रमिः न जायते
तत्र दण्डभ्रमणं न भवति दण्डे कार्यं भवति सम्पूर्णभ्रमणं न भवति खलु
अत्र एकं उपभागः अस्ति वाक्यस्य दण्डं संस्थाप्य दण्डभ्रमणे सति इति तदर्थं महोदयस्य प्रश्नः आगतः
सत्यम् अहम् अवगच्छामि यः वदति सः परन्तु यथा चक्रभ्रमिः अस्ति अथवा कपालभ्रमिः अस्ति तथा नास्ति दण्डभ्रमणं किञ्चित् कार्यमस्ति तावदेव सम्पूर्णतया वृत्ताकारेण न गच्छति
प्रायः द्वित्रिवारं भ्रमणं कृत्वा दण्डं ततः छिद्रात् वयं
उन्नयामः
उन्नयामः चेत् अपि चक्रे दण्डः भ्रमणं जायमानमेव.
अस्तु, अत्र किम् उक्तमस्ति, तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रे अपि भ्रमिः. तत् संयोगवशात् कस्य संयोगवशात्? दण्डसंयोगवशात् खलु. तेन च भ्रमणेन कपालेपि भ्रमणम् उत्पद्यते. तर्हि तत्र केवलं दण्डचक्रयोः संयोगः विवक्षितः अत्र तावदेव इति भाति. तत् संयोगवशात् चक्रेपि भ्रमिः भवति इति, तदर्थमेव स्वजन्यभ्रमिः इति स्वीकृतम्. दण्डसंयोगवशात् चक्रे भ्रमिः इति भाति, न तु दण्डभ्रमणेन चक्रे भ्रमणम् इति. अस्तु, यत्किमपि भवतु, इतः किञ्चित् अग्रे सरेम. केन आगतं अस्तु अस्तु, तर्हि अधुना किञ्चित् अग्रे सरेम. अग्रे अस्ति यद् स्नेहः, स्नेहः निमित्तकारणमिति जानीमः. तर्हि घृते अपि च तैले यदि तयोः संयोगेन यदा स्नेहः अनुभूयते चेत् तत्र कारणं किम् इति. अग्रिमपरिच्छेदस्य अन्तिमवाक्यं रामप्रिया भगिनी किञ्चित् पठति वा?
घृततैलादिसंयोगे सति, तदेव किल. घृततैलादिसंयोगे सति तदाविध इव अनुभूयमाने अपि अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. एतदेव वयं करपत्रे दृष्टवन्तः. अन्वयं कृत्वा अन्वयवाक्यं पठामि वा भगिनि?
अस्तु, एवं करोतु. करपत्रं प्रति गच्छतु. करपत्रे अन्तिमपरिच्छेदः, तस्मात् पूर्वं यदस्ति किञ्चित् पठतु.
अन्तिमपरिच्छेदः
पिण्डीभावजनकत्वं दृष्ट्वा. अहं करपत्रद्वयं प्रेषितवती अद्य.
आम् आम् आम्, करपत्रं प्राप्तम्. अन्तिम परिच्छेदे अद्य अत्र विद्यार्थिनां पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिद्ध्यति. तद्वा स्नेहः अस्ति चेत् जलांशः अस्ति इति सिद्ध्यति. यतोहि स्नेहः जलस्य एव गुणः, अतः क्रमः एवं. स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाध्य पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः. पिण्डीभावस्य कारणं स्नेहः, अतः स्नेहः अपि अत्र भवेत्. स्नेहः जले एव, अतः अत्र जलमपि भवेत्. अधुना पिष्टेन सह तैलस्य संयोजनेन पिण्डीभावो जायते, अनेन अत्र स्नेहो वर्तते. तैलं तु पृथ्वी अस्ति, पृथिव्यां च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्य एव, जले च जलभागोऽपि अस्ति इति पर्यवसितम्. अत्र अस्ति यत् पिण्डीभावं, पिण्डीभावजनकत्वं वयं पश्यामः चेत् तत्र स्नेहः अस्ति इति वयं वक्तुं शक्नुमः, इति साधयितुं शक्नुमः. स्नेहः कुत्रापि अस्ति चेत् तत्र जलांशः अस्ति अपि अस्ति इति अपि वयं साधयितुं शक्नुमः. किमर्थम् इत्युक्ते स्नेहः जलस्य गुणः, स्नेहः जलमात्रवृत्तिः इति अस्ति. स्नेहः जलस्य एव गुणः, अतः क्रमः एवम् अस्ति. स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाध्य, प्रथमं स्नेहस्य जलमात्रवृत्तित्वम्, अनन्तरं पिण्डीभावः कस्मिंचित् पिष्टे अनुभूतः कस्मिंचित् पिष्टे वयम् अनुभवामः पिण्डीभावः इति. पिण्डीभावस्य कारणमस्ति स्नेहः, अतः अत्र स्नेहः अपि भवितव्यम् इति. स्नेहः जले एव, अतः जलमपि अत्र अस्ति इति क्रमः.
सत्यं क्रमः.
अनन्तरम् अस्ति अधुना यदा वयं पिष्टेन सह तैलस्य संयोजनं कृतवन्तः चेत् तत्र पिण्डीभावः जायते. पिण्डीभावः अत्र अस्ति जायते. पिण्डीभावः अस्ति चेत् अनेन अत्र स्नेहः अपि वर्तते. तैलं तु पृथिवी अस्ति, पृथिव्यां च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्य एव, तैले च जलभागो अपि अस्ति इति पर्यवस्तम्. ओके, तैलं तु पृथिव्यांशः अस्ति, पृथिव्यां तु स्नेहः न सम्भवति. इत्युक्ते स्नेहः जलमात्रवृत्तित्वम् अस्ति, पृथिव्यां स्नेहः नास्ति, न सम्भवति इत्य. अतः तैले एतत् स्नेहः वर्तते, तत्तु जलस्य एव अस्ति, न तु पृथ्वी अंशः.
समीचीनं. तर्हि एतत् मनसि स्थाप्य पुनः ध्वनिः. रामप्रिया भगिनी भवती म्यूट् करोति वा
किञ्चित्?
प्रायः अस्तु, एतत् मनसि निधाय पश्येम अग्रे किमस्ति इति. तत् दीर्घवाक्यमासीत् खलु, तस्य किञ्चित् विश्लेषणं कुर्मः. सरला भगिनी अग्रिमपरिच्छेदं किञ्चित् पठति वा?
अस्तु भगिनि. अत्र विद्याधर्यां लिखितम् अस्ति यत् घृततैलादि संयोगे सति तथावत् एव पिण्डीभाव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेन एव इति अन्वयव्यक्तिरेखाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. अस्य च अर्थः कः इति परिशीलनीयः. यदि अस्य अर्थः अस्ति यत् घृततैलादिसंयोगे सति तथाविद् एव पिण्डीभाव अनुभूयमानः तथापि घृतादौ विद्यमानेन जलांशेन एव अन्वयव्यक्तिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति तादृश अर्थः अस्ति चेत् तर्कप्रायः सम्यक्तया न प्रवर्तते. पुनः कथञ्चित् भिन्नरीत्या पठामश्चेत् कार्यं तर्कम् अनुसृत्य भवति, तच्च इदम् अन्वयव्यक्तिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अथ घृततैलादिसंयोगे सति तथावत् इव पिण्डीभाव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः. प्रश्नः अत्र अयं यत् मूलवाक्ये अवधारयामः इति क्रियापदस्य अन्वयः केन सह जलांशेन एव इति अथवा जलमात्रवृत्तित्वं
तदग्रे तावत् पर्यन्तं प्रायः वदतु.
तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगे सति तथाविद इव पिण्डीभाव अनुभूयमानोऽपि अन्वयव्यक्तिरेकाभ्यां घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः इति अन्यविकल्पः. अनेन परिवर्तेन
अस्तु, भवती यत् पठितवती तत् किञ्चित् विवृणोतु.
अस्तु, घृततैलादिसंयोगे यदि घृततैलादिसंयोगे पिष्ठेन संयोगः भवति तत्र पिण्डीभाव यत् वयम् अनुभवामः तस्य कारणं किम् अस्ति? तस्य कारणं भवति स्नेहस्य कारणमस्ति जलं. कारणं कि स्नेहः जलमात्रवृत्ति स्नेहः केवलं जल जले अस्ति इति कारण वयं अवगच्छामः पिण्डीभाव घृततैलादि संयोगे वयं दृष्टामः तस्य कारणम् अस्ति जलमात्रवृत्तित्वं स्नेहस्य स्नेहस्य कारणे अन्वयव्यक्तिरेखाभ्यां वयं जानीमः अन्वयं यत्र यत्र यथा यत्र यत्र धूमस्ति तत्र वह्नी अस्ति यत्र कार्यं सति कारणम् अस्ति तत्र कार्यं पिण्डीभावः अस्ति तस्य पिण्डीभावः सति कारणम् अस्ति जलवृत्तित्वं स्नेह व्यक्तिरेखाभ्यां यदि कारणम् अस्ति तत् कार्यं भवति
एकनिमिष अन्वयव्यतिरेकः अन्वयः इति भवती उक्तवती तत् सत्त्वे तत् सत्यं सत्त्वम् इति व्यतिरेकः इत्युक्ते
तत् अभावे कार्यस्य कारणस्य अभावे कार्यम् अभावः भवति नास्ति धूम नास्ति
इति अन्वयव्यतिरेकौ तर्हि पिण्डीभावः अस्ति चेत् किम् अवगन्तुं शक्नुमः
पिण्डीभावः अस्ति चेत् अहम् अवगच्छाम् अवगच्छामः तत्र स्नेहः अस्ति स्नेहः अस्ति जल अस्ति तत्र
जल
अस्ति जलम् अस्ति वयं केवलं घृततैल उपयुज्मः तत्र जलं यद्यपि जलं न दृष्टामः किन्तु पिण्डीभाव पश्यामः पिण्डीभाव द्रष्टुं वयं साधयामः तत्र जलम् अस्ति घृततैले
इति अस्ति इति सारांशः अवगतः अधुना तत्र इति अपि च अवधारयामः इति अस्ति खलु तत्र तत्र अन्वयः कुत्र कुत्र इति अवगन्तव्यं भवति यद्भवती उक्तवती तत् समीचीनमेव घृततैलादि संयोगे सति तथाविधैव पिण्डीभावः अनुभूयमानः यदा पिण्डीभावः अनुभूयते तत्र अन्वयव्यतिरेखाभ्याम् अवगच्छामः यत् स्नेहः अस्ति स्नेहः जलमातावृत्तित्वम् इति तर्हि अग्रे पठतु पुनः इति
पुनः कथञ्चित् भिन्नरीत्या पठामश्चेत् कार्यं तर्कम् अनुसृत्य भवति तच्च इदम् अन्वयव्यक्तिरेखाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादि संयोगे सति तथाविद् इव पिण्डीभाव अनुभय अनुभूयमानोऽपि घृतादौ विद्यमानेन जलंशा जलांशेन एव इति अवधारयामः
किम् अवधारयामः
इति जलांश जलमात्रवृत्तित्वं स्नेहस्य जलमात्रवृत्तित्वम् इति जलांशेन एव इति अवधारयामः
तत्र अस्तु सावित्री भगिनी किञ्चित् साहाय्यं करोति वा प्रतिध्वनिः आगच्छति राजेन्द्र महोदय किञ्चित् म्यूट् करोमि भवन्तं यदा वदति तदा अन्म्यूट् करोतु
अस्तु भगिनि अन्तिमवाक्यं वा पुनः कथञ्चित् भिन्नरीत्या तत्र पुनः कथञ्चित् भिन्नरीत्या पठामश्चेत् कार्यं तर्कमनुसृत्य भवति तच्च इदम् अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः धृततैलादि संयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि धृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः अत्र किम् अवधारयामः इत्युक्ते यत्र पिण्डीभावः अस्ति तत्र स्नेहः भवेत् यत्र स्नेहः अस्ति तत्र जलं भवेत् किमर्थं चेत् स्नेहस्य लक्षणवाक्यमे वाक्ये अस्ति यत् जलमात्रवृत्तित्वम् इति अत्र यतोहि धृततैलादिसंयोगे पिण्डीभावः अनुभूयमानः पिण्डीभावम् अनुभूयमानो भवति, तथापि तत्तु जलांशेनैव इति भवति. स्नेहस्य जलवृत्तित्वं वृत्तित्वेन इत्युक्ते जलांशेनैव पिण्डीभावः अनुभूयमानः भवति इति अवधारयामः.
तर्हि अन्ततो गत्वा किम् अवधारयामः इत्युक्ते जलांशेनैव पिण्डीभावः अस्ति इति अवधारयामः इति आगच्छेत् इति अवधारयामः इत्यस्य अन्वयः तेन सह अस्ति. पिण्डीभावः जलांशेनैव इति ततः पृष्ठभागे अपि च ततः पूर्वम् अपि च तस्मात् परं यत्किमपि अस्ति तत्सर्वं तदेव समर्थयति. घृततैलादिसंयोगे सति तथाविधपिण्डीभावः अनुभूयमानः जलांशेनैव एव इति अवधारयामः. किमर्थं जलांशेनैव?
किमर्थं चेत् तत्र स्नेहस्य जलवृत्तित्वमात्रेण एव इत्युक्ते स्नेहः तु जलेनैव जले एव भवति, तत्कारणात् जलांशः प्रायः निश्चयेन अस्ति अत्र. पिण्डीभावः न भवितुम् अर्हति.
हा, तर्हि वाक्यस्य द्वितीयभागम् अन्वयव्यतिरैकाभ्यां तत्कारणस्य स्नेहस्य कस्य कारणस्य
पिण्डीभावस्य कारणः.
तर्हि वाक्यस्य द्वितीयभागं प्रथमं स्थाप्य अन्वयव्यतिरेकाभ्यां पिण्डीभावकारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति प्रथमं, तदनन्तरं तेन एतत् सर्वम् अस्ति. कृततैलादौ अनुभूयमानः पिण्डीभावः जलांशेनैव इति अवधारयामः इति. अस्तु, बुद्धं
भगिनि, मम एकः प्रश्नः अस्ति. अन्वयव्यतिरेक इत्युक्ते
किमिति वा? सरला भगिनी पुनः वदति किञ्चित्.
तत् सति कार्यं सति कारणं सति यदा
एकनिमिषः कारणतः प्रारम्भं करोतु. कारणे सति कार्यं कार्यस्य सत्त्वम् अन्वयसहचारः अपि च
कारणस्य अभावेन कार्यस्य अभावः अस्ति.
यथा
धूम अस्ति वह्नी अस्ति तस्य भवति अन्वयसहचार. यदि वह्नी नास्ति धूम अपि नास्ति तति व्यतिरेक.
समीचीनं, तर्हि हा इतः अग्रे किञ्चित् संयोजितं करपत्रे शुकवनमहोदय भवतः किञ्चित् चिन्तनम् आसीत् खलु तस्य विषये, भवान् एव पठतु तत्र.
अस्तु भगिनि,
आस्ट्रिक्स्
तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगे सति तथाविधैव पिण्डीभावः अनुभूयमानोऽपि अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः इति अन्यविकल्पः. अत्र अन्वयव्यतिरेकाभ्याम् इति पदस्य अन्वयः किञ्चित् भिन्नरीत्या वैकल्पेन उक्तमस्ति. पूर्वस्मिन् परिच्छेदे अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति, स्नेहस्य जलमात्रवृत्तित्वं कथम् अस्माभिः ज्ञायते इत्युक्ते अन्वयव्यतिरेकाभ्याम् इति तत्र दत्तमस्ति. किन्तु अस्मिन् वाक्ये जलमात्रवृत्तित्वम् अन्वयव्यतिरेकाभ्यां वयं ज्ञायते इति न, किन्तु घृतादौ विद्यमानेन जलांशेन एव पिण्डीभावं जायते इति अन्वयव्यतिरेकाभ्यां. यदि घृतादौ जलांशः अस्ति चेत् पिण्डीभावः भवति इति अन्वयः. यदि घृतादौ जलांशः नास्ति इति स्वीकुर्मश्चेत् पिण्डीभावः न भवितुम् अर्हति इति कृत्वा अन्वयव्यतिरेकाभ्यां जलांशः अस्ति इति अत्र अन्वयव्यतिरेकाभ्यां वयं ज्ञायते तत्र वैक विकल्पं
हा हा समीचीनं बुद्धं वा सर्वैः केवलं घृततैलादिसंयोगं दृष्ट्वा तत्र पिण्डीभावमपि दृष्ट्वा तत्र तस्मिन् स्थले अन्वयव्यतिरेकाभ्याम् अनुमानः क्रियते यद् अस्तु स्नेहः जलांशः अस्ति अत्र अस्तु अग्रे महोदय
अपि च अनेन परिवर्तनेन चेति सङ्गच्छते घृततैलादिसंयोगे सति तथाविधैव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वेन तत्कारणस्य स्नेहस्य अवधारयामः इति जल मूलग्रन्थे जलमात्रवृत्तित्वम् इति तत्र विभक्तिः द्वितीया आसीत् तेन अवधारयामः इति पदं कुत्र अन्वयः भवति इति सन्देहः आसीत् किन्तु यदा वयम् एतादृशं परिवर्तयामश्चेत् वाक्यस्य जलमात्रवृत्तित्वम् इति स्थले जलमात्रवृत्तित्वेन इति तृतीयविभक्ति उपयोगं कुर्मश्चेत् तत्र अवधारयामः केवलं घृतादौ विद्यमानेन जलांशेन एव इति तत्र एव तस्य अन्वयः भवितुम् अर्हति इति एतादृशं परिवर्तनं कृत्वा अपि स्वीकर्तुं शक्यते इति
अस्तु तर्हि मम अपि किञ्चित् अवगमनम् आवश्यकम् अत्र घृततैलादिसंयोगे सति तथाविधैव पिण्डीभावः अनुभूयमानोऽपि तावत्पर्यन्तं समीचीनं घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः अवधारयामः इत्यस्य अन्वयः तत्रैव अस्ति खलु
आम्
हा इति हा किन्तु केन कारणेन अवधारयामः अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वेन अवधारयामः इति आगच्छति तादृशपरिवर्तनमपि स्यात् इति इतोपि विकल्पः अस्तु अन्ततो गत्वा फलितार्थः तु घृततैलादौ अनुभूयमानः पिण्डीभावः जलांशेनैव जलमस्ति इति अवगन्तुं शक्यते इति अस्ति
अपि च भगिनी अस्मिन् विषये गतशुक्रवासरे मणिद्राविडः मणिद्राविडशास्त्रिणः कृते किञ्चित् सम्पर्कं कृतवान् चर्चायां एवं मया उक्तं तस्मिन् यदि वयं केवलं तैलं स्वीकृत्य पिष्टराशिं मिश्रणं कुर्मश्चेत् तत्रापि पिण्डीभावः दृश्यते एव इति कृत्वा व्यतिरेकं न सिद्ध्यति जलमात्रवृत्तित्वस्य व्यतिरेकं न सिद्ध्यति इति मया पृष्टः किन्तु तेन उक्तः एवं यदि तादृशं वयं कुर्मश्चेत् जलमिश्रणं विहाय केवलं तैलम् एव स्वीकृत्य पिष्टराशौ मिश्रणं कुर्मश्चेत् तस्मिन् विद्यमानपिण्डीभावः यदा वयं जलं मिश्रणं कृत्वा यत् पिण्डीभावः जायते तयोः मध्ये भेदः वर्तते अत्र काठिन्यम् अस्ति किन्तु यदा वयं जलं मिश्रणं कुर्मश्चेत् तत्र सम्यक् पिण्डीभावः जायते धारणकर्षणमपि सम्यक् जायते किन्तु केवलं तैलम् एव उपयोगं कुर्मश्चेत् तस्मिन् तादृशपिण्डीभावं न जायते तत् किमर्थम् इत्युक्ते जले स्नेहः इति गुणः पूर्णतया अस्ति किन्तु घृते किञ्चिदेव जलांशः अस्ति तस्मिन् किञ्चिदेव स्नेहः अस्ति कृत्वा तयोः मध्ये भेदः अस्ति इति तेन उक्तम्
हा 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 इति तु सत्यमेव घृतम् इति पृथ्व्याः अपि च जलस्य मिश्रणं कियान् अंशः पृथ्वी अस्ति कियान् अंशः जलमस्ति इति अवलम्बते खलु ईदृशपिण्डीभावः हा सत्यं तथा
परन्तु महोदय भवतः प्रश्नः आसीत् व्यतिरेक विषये खलु
तत्र किं कथम् अवगच्छामः व्यतिरेकः अस्ति इति अन्वय धृतादौ जलकणाः सन्ति इति इदानीमेव अस्ति एव परन्तु व्यतिरेकस्य उदाहरणं कुत्र तत्र
आहा तत्र घृतादौ जलांशः अस्ति इति कथं ज्ञायते
कथं ज्ञायते तत्तु प्रमाणेनैव लक्षणवाक्येनैव खलु
न तत्र प्रमाणे किमपि नास्ति
लक्षणवाक्ये किमस्ति स्नेहः जलमात्रवृत्तिः
अत्र
यदा धृतादौ पिष्टे मिश्रणं कुर्मः किञ्चित् पिण्डीभावः तु प्रदर्शयति एव खलु दृश्यते एव
आमाम् आम् आम्
तत्र अन्वयः एव मम चिन्तनमस्ति
सत्यं सत्यं महोदय तत्र घृतौ घृते अपि अस्ति जलम्
आहा तत्र व्यतिरेकम् अहं वदामि भगिनि किञ्चित् पिष्टराशौ स्वीकृत्य केवलं जले वयं मिश्रणं जलेन वयं मिश्रणं कुर्मः तत्र पिण्डीभावं जायते तत्र एकस्मिन् पार्श्वे स्थापयामः अन्यत् किञ्चित् पिष्टराशौ स्वीकृत्य केवलं घृतेन वयं मिश्रणं कुर्मश्चेत् तथा तत्रापि पिण्डीभावः जायते एतयोः द्वयोः पिण्डीभावयोः मध्ये पिण्डीभावस्य
भेदः अस्ति घृतकृतपिण्डीभावः किञ्चित् कठिनम् अस्ति जलकृतपिण्डीभावः किञ्चित् मृदु अस्ति खलु इति भवतः तथापि घृतेन पिण्डीभावः जातः इति चेत् घृते जलम् अवश्यम् अस्ति इति एव अधिकांशः जलं नास्ति किन्तु किञ्चिदपि जलम् अस्ति इति एव आगच्छति तदेव अन्वयव्यति हा तथा हा तर्हि व्यतिरेकस्य विचारः नास्ति अत्र अन्वयः एव पिण्डीभावं दृष्ट्वा स्नेहः अस्ति इति दृष्ट्वा पुनः
तत्र प्रश्नः वा पुनः वदामि भगिनि अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति स्वीकुर्मश्चेत् तत्र तत्सत्त्वे तत्सत्त्वम् इति कथं जलं मिश्रणं जलेन मिश्रणं कुर्मश्चेत् तत्र पिण्डीभावः जायते इति अन्वयः जलेन न मिश्रणं कुर्मश्चेत् पिण्डीभावः न जायते इति व्यतिरेकं किल तदभावे तदभावः इति तत्र अहं पूर्वपक्ष रूपं भूत्वा आगत्य घृतेन मिश्रणं कृत्वा अत्रापि पिण्डीभावः जायते अतः व्यतिरेकं न सिद्ध्यति
एकनिमिषः महोदय घृते वस्तुतः जलमस्ति इति एव अधुना पठितवन्तः तैले अपि जलमस्ति किञ्चित् घृते अपि जलमस्ति किञ्चित्
तत् ज्ञानम् इदानीं नास्ति इति स्वीकरोतु भगिनि जलमात्रवृत्तित्वं
भगिनि अत्र घृतम् इति पार्थिवद्रव्यं तदपि अत्र आवश्यकं
तदपि
घृतम् इति पार्थिवद्रव्यं यथा स्नेहस्य जलमात्रवृत्तित्वम् इति पूर्वतनज्ञानम् अपेक्षते घृतम् इति पार्थिवद्रव्यम् इति अपि इत्यपि ज्ञानम् अपेक्षते तर्हि घृतम् इति पार्थिवद्रव्यं चेत् पार्थिवद्रव्ये द्रव्ये पिण्डीभावः सम्पद्यते वा इति प्रश्नः तत्रैव व्यतिरेकस्य प्रयोगः इति मम मतिः
एकनिमिषं भगिनि
स्नेहस्य अभावः घृते अतः पिण्डीभावः न घृते इति व्यतिरेकेन साध्यते पार्थिवद्रव्ये पिण्डीभावः न भवति इति अतः अन्वयव्यतिरेकाभ्यां जलांशेन एव पिण्डीभावः भवति इति
हा अत्र वार्ता का इति चेत् घृतं स्वीकृत्य पिष्टस्य उपरि पातयतु इति वार्ता घृते घृतं स्वीकृत्य यथा जलं पातयति पिष्टस्य उपरि तद्वत् घृतं पातयति चेदपि पिण्डीभावः आगच्छति किल
आमाम् अवश्यम् अत्र किञ्चित् जाटिल्यमेव किमर्थम् इत्युक्ते जल घृतात् जलस्य पृथक् करणं न भवति एव अतः
हा यदा घृतं किञ्चित् द्रवं भवति तदा प्रायः वक्तुं शक्यते खलु अस्मिन्नपि चलामि
रक्षा भगिनी अत्र सन्दर्भः किम् इत्युक्ते चिन्तयतु एवं भवती जलमात्रवृत्तित्वं साधयितुम् उत्युक्ता अस्ति इति चिन्तयतु अन्वयव्यतिरेकाभ्यां प्रथमं भवती किं करोति पिष्टराशिं स्वीकृत्य जलेन मिश्रणं कृत्वा यदा जलः जलमस्ति तदा पिण्डीभावः जायते इति अन्वयं साधयति किल
सत्यं
तदनन्तरं यदा जलेन न मिश्रणं करोति केवलं पिष्टराशिः तादृशमेव अस्ति तत्र पिण्डीभावः न जायते अतः व्यतिरेकमपि साधयति किल
सत्यं
सत्यं
तस्मिन् सन्दर्भे अहम् आगत्य पिष्टराशौ घृतेन मिश्रणं कृत्वा केवलं जलां जलेन मिश्रणं करोति चेत् एव पिण्डीभावः न जायते किन्तु घृतादौ मिश्रणं घृतस्य मिश्रणेन मिश्रणेनापि पिण्डीभावः जायते इति कारणात् यदा जल तदभावे तदभावः इति न सिध्यति इति अहं वादं करोमि
हा इति भवान् वादं करोति परन्तु यः कोऽपि जानाति यत्र पिण्डीभावः अस्ति तत्र स्नेहः वर्तते यत्र स्नेहः वर्तते तत्र जलं वर्तते इति यः कोऽपि जानाति यद् रामप्रिया भगिनी पठितवती हा तर्हि भवान् किं पूर्वपक्षि वा सिद्धान्ति वा भवति चेत् तत्र यः कोऽपि प्रतिवादं करोति सः तु भवन्तम् अवगमयति अस्तु घृते अपि जलमस्ति तदर्थम् अत्र पिण्डीभावः जातः
इति ते निरूपणीयं किल केवलं वदामश्चेत् अहं न स्वीकरोमि
हा तर्हि कथं निरूपणीयम् एकवारं यदा
एतादृशमेव निरूपणीयं तदेव अहं शास्त्रिणः कृते पृष्टवान् सः उक्तवान् आसीत् पिण्डीभावयोः मध्ये भेदः अस्ति इति कृत्वा अत्र काठिन्यम् अस्ति यदा वयं जलेन मिश्रणं करोमि चेत् तत्र सम्यक् पिण्डीभावः जायते किन्तु घृतेन मिश्रणं कुर्मश्चेत् तादृशपिण्डीभावः न जायते किमर्थम् इत्युक्ते घृते किञ्चिदेव जलांशः अस्ति अतः तावत् कियत् जलांशः तस्मिन् अस्ति तावदेव पिण्डीभावं जायते इति कृत्वा ज्ञातुं शक्नुमः इति तेन उक्तं
हा 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 सत्यं तत् सत्यमेव किन्तु जलम् अवश्यं स्यात् इति मूलविचारः घृते अपि जलं स्यात् इति अस्तु समीचीनम् अग्रे सरेम तर्हि अनन्तरं भारती भगिनी पुस्तके एवं विधोपि इति अस्ति खलु ततः आरभ्य पठति वा
एवं कुत्र अस्ति भगिनि
अन्तिमपरिच्छेदः तत्र 116 इति पृष्ठसङ्ख्या
116 एवं विधोपि अयं स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः एवं विधो अपि इत्युक्ते
इत्युक्ते हा हा समीचीनं भगिनि तर्हि पूर्वस्मिन् परिच्छेदे यत्किमपि अस्माभिः पठितम् इति अवधारयामः जलांशेनैव जलमात्रवृत्तित्वं
एवं विधो अपि अयं स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः इत्युक्ते स्नेहः चक्षुरा इन्द्रियेण इन्द्रियेण ज्ञातुं न शक्यः
सत्यं
घ्राणरसनश्रोत्राणां प्रतिनियत ग्राह्यगुणात् गुणातिरेक गुणातिरिक्ते प्रसरः न सत्य न असत्ये असति एव.
हा, प्रतिनियतग्राह्याः इत्यस्य विषये किञ्चित् द्रष्टव्यमस्ति. तत्र कस्मिन् पुटे 50 पञ्चाशत्तमे पुटे किञ्चित् पश्यतु. ग्राणरसनश्रोत्राणां प्रतिनियतग्राह्यगुणातिरिक्ते प्रसरः नास्ति एव इति उक्तं. तत्र क्षम्यतां, नवचत्वारिंशत्तमे पुटे 49 इति पश्यतु. तत्र प्रतिनियतग्राह्याः गुणाः के के सन्ति?
प्रतिनियत रूपं रसः गन्धः स्पर्शः शब्दः च इति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते.
हा हा, किमर्थम् इति अग्रे चित्रमस्ति, किञ्चित् पठतु. रूपं केन इन्द्रियेण गृह्यते?
रूपं चक्षुः.
हा, चक्षुषा गृह्यते. रसः?
रसः रसनं रसनं. गन्धः घ्राणस्य. स्पर्शः त्वकिन्द्रियेण.
शब्दः श्रोत्रेण.
श्रोत्रेण
अपि च आत्मनि षड्गुणाः धर्माधर्म भावनाख्यसंस्कारः इत्यादयः मनसा गृह्यन्ते. तर्हि अत्र प्रतिनियतग्राह्यत्वम् इत्युक्ते एकम् एकेनैव इन्द्रियेण गृह्यन्ते इति. रूपं केवलं चक्षुषा गृह्यते. अपरेण इन्द्रियेण गृह्यते वा रूपं?
न.
रसः तु केवलं रसनेन, गन्धः तु केवलं घ्राणेन, स्पर्शः केवलं त्वचा इति अस्ति. अस्तु, पुनः गच्छतु अधुना यत्र आसीत्, षोडशाधिकशततमे पुटे.
घ्राणरसन श्रोत्राणां प्रतिनियत ग्राह्य गुणातिरिक्ते प्रसरः न अस्ति एव.
तस्य अर्थः कः?
घ्राणरसनश्रोत्राणि इन्द्रियेण अपि इन्द्रेण अपि न शक्यः.
किं न शक्यः?
स्नेहः.
किमर्थं न शक्यः?
किमर्थं स्नेहः? चक्षुषा न दर्शनं शक्यः.
अत्र एकं पदमस्ति, प्रतिनियतग्राह्यगुणातिरिक्ते. प्रतिनियतग्राह्यगुणाः के के इति वयं दृष्टवन्तः खलु. प्रतिनियतग्राह्यगुणातिरिक्ते इत्युक्ते प्रतिनियतग्राह्यगुणान् वर्जयित्वा घ्राणरसनश्रोत्रादि इन्द्रियाणि अन्यत् किमपि न गृह्णन्ति इति. तदेव प्रसरः. घ्राणं घ्राणं किं कं गुणं गृह्णाति?
घ्राणं गन्धः.
गन्धं गृह्णाति, रसं गृह्णाति, श्रोत्रमिति शब्दं गृह्णाति. तद् अतिरिच्य प्रसरः नास्ति एतेषाम् इन्द्रियाणाम् इति कृत्वा किं
प्रसरः इत्युक्ते?
प्रसरः इत्युक्ते प्रसारः. तद्वर्जयित्वा तस्य ग्राहकत्वं नास्ति. तत्र तस्य तेषां ग्रहणक्षेत्रं सीमितमस्ति. प्रतिनियतग्राह्यगुणान् गृह्णाति, अतः स्नेहमपि न गृह्णाति. तर्हि स्नेहः केनचिदपि इन्द्रियेण न गृह्यते, तादृशगुणः. अस्तु, अग्रे पठतु.
चक्षुषः त्वक् च त्वचश्च रूपस्पर्शा अतिरिक्तेषु सङ्ख्यादिषु अस्ति ग्राहकता. चक्षुषः त्वचश्च रूपस्पर्शातिरिक्तेषु सङ्ख्यादिषु अस्ति ग्राहकता.
अर्थः कः?
चक्षुषः स्पर्शस्य स्पर्शः अपि रूप स्पर्शाति रूपस्पर्श त्यक्त्वा सङ्ख्यादिषु अस्ति ग्राहकता. सङ्ख्यादिषु
हा बहु समीचीनं भगिनि. चक्षुः केवलं रूपं गृह्णाति इति न, त्वचः इति केवलं स्पर्शं गृह्णाति इति न, रूपस्पर्शान् अतिरिच्य इति भवती यद् उक्तवती तत् समीचीनं. रूपस्पर्शान् अतिरिच्य चक्षुः अपि च त्वक् अन्यत् किं गृह्णाति?
सङ्ख्यादिषु
सङ्ख्या परिमाणं विभागः संयोगः इत्यादीन् गृह्णाति चक्षुः अपि च त्वचः इति अस्ति. अस्तु, तत्रापि अग्रे गत्वा पश्येम, तत्रापि स्नेहः न आगच्छति द्वीन्द्रियेषु इति. समीचीनम्. अस्तु, अग्रे अन्यः कोऽपि पठेत्, सुनिला महोदय पठति वा वाक्यद्वयं प्रायः, न वाक्यत्रयं, ततः अग्रे.
तदेतत् रूपलक्षणे निरूपितं, परन्तु चक्षुषा त्वचा वा अवधानविशेषे अपि एकाग्रे अपि न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषणः शेषणसः अनुमातव्यः भवति. अतः एव न्यायबोधिनीग्रन्थे नव्यमदोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार एव कटाक्षितः.
तावत्
अत्र चक्षुषस्य अथवा त्वक् इति दशास्वभावः अत्र रूपलक्षणे अपि निरूपितमिति, परन्तु अत्र चक्षुषा त्वचा वा अवधानविशेषे अपि एकाग्रे अपि न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषेण सह अनुमातव्यः भवति. अतः अत्र स्नेहस्य विषये चक्षुषा न गृह्णामः गृहीतुं शक्यते, अथवा त्वक् उपयुज्य अपि स्नेहस्य अवधानं कर्तुं न शक्यते इति वा?
हा हा, समीचीनं. भवता अवगतम् इति भाति सारांश. चक्षुषा त्वचा अवधानविशेषेपि ऐकाग्र्येपि इति अस्ति, तस्य अर्थः किञ्चित् ऊहितुं शक्यते वा?
अत्र चक्षुषा अथवा त्वचा अत्र स्नेहस्य अवधानं भवति, परन्तु तत् सम्पूर्णं न गृह्णाति इति वा?
अत्र अवधानविशेषेपि ऐकाग्र्येपि इति अस्ति, तत्र ऐकाग्रे इत्युक्ते एकाग्रतया इत्युक्ते अति सावधानतया अपि, सावधानम् इति जानाति खलु, बहु अवधानेन, अवधानविशेषः ऐकाग्र्यः इति तत्र विशेषणविशेषभावः स्यात्. अवधानविशेषेपि ऐकाग्र्येपि इत्युक्ते सावधानतया अपि चक्षुषा द्रष्टुमिच्छामश्चेत् अथवा त्वचा स्प्रष्टुमिच्छामश्चेत् तथापि किम्
स्नेहः न गृह्यते इति वा? न स्नेहः गृह्यते इति, परन्तु अत्र वयं तद् अनुभवामः किल अत्र?
हा हा, सत्यम् इति मम प्रश्नः आसीत्, अग्रे आगच्छति करपत्रे. हा, एते वदन्ति यत् स्नेहः, अस्तु अग्रे पठतु. पिण्डीभाव
पिण्डीभाव न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषेण सह अनुमातव्यः भवति. अत्र अत्र पिण्डीभाव रूपकार्यविशेषणः सः अत्र अनुमातव्यः इति.
हा, तर्हि वस्तुतः चक्षुषा न गृह्यते, त्वचापि न गृह्यते, यत् यावत् यत्किमपि करोति चेदपि, सावधानतया पश्यति चेदपि न गृह्यते, तर्हि कथं सिद्ध्यति स्नेहः?
अत्र
पिण्डीभाव,
पिण्डीभावरूपं दृष्ट्वा अथवा पिण्डीभावरूपकार्यविशेषणं विशेषणस्य अवधानेन एव स्नेहस्य अवधानमपि भवति.
पिण्डीभावरूपकार्यविशेषणं दृष्ट्वा, विशेषं दृष्ट्वा अनुमानेन स्नेहः अस्ति जले इति वक्तुं शक्यते.
इत्युक्ते प्रत्यक्षे न भवति, परन्तु पिण्डीभावरूपं विशेषेण एव स्नेहस्य भावम् अनुभवामः इति.
हा, अनुमानेन साधयामः इति. अस्तु, अग्रे.
अतः एव न्यायबोधिनी ग्रन्थे.
एकनिमिषः, प्रश्नः अस्ति वा?
आं भगिनि, तत्र विशेषे किमर्थम् इति, तस्य रूपं किं, द्विवचनं वा किम् अस्ति तत्र?
अवधानविशेषे ऐकाग्र्येऽपि इति खलु?
आम् आम्.
तत्र हा सप्तमी विभक्ति भगिनि. ऐकाग्र्ये अपि एकाग्रतायामपि इति चिन्तयतु तथा.
अस्तु, परन्तु के अस्तु
खलु, चक्षुषा अथवा त्वचा वा ऐकाग्र्येऽपि अथवा एकाग्रतायामपि न स्नेहः गृह्यते.
अस्तु अस्तु भगिनि.
अस्तु, सुनीलमहोदय.
अतः एव न्यायबोधिनीग्रन्थे नव्यमदोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार एव कटाक्षितः. अत्र न्याय बोधिनीग्रन्थे नव्यमदोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार्य एव कटाक्षितः. अत्र पिण्डीभावं प्रति स्नेहः कारणमिति वयं पठितवन्तः, परन्तु अत्र कारणत्वं निराकृत्य इति अस्ति.
केन निराकृतं कारणत्वम्?
अत्र न्यायबोधिनीग्रन्थे च नव्यमदोपन्यासे.
हा, न्यायबोधिनी इति ग्रन्थः नव्यनैयायिकानां, तेषाम् उपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणं निराकृत्य, तावदवगच्छति खलु?
आम्.
हा, स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृतं, किमर्थं निराकृतम्?
अत्र स्नेहस्वीकार्यमेव स्वीकृतवन्तः इति.
इत्युक्ते स्नेहः यावत् यत्किमपि यावत् प्रयत्नं करोति चेदपि स्नेहः चक्षुषा वा त्वचा न गृह्यते खलु? इति कृत्वा नव्यनैयायिकैः स्नेहस्य पिण्डीभावं प्रति कारणत्वमेव निराकृत्य स्नेहस्वीकारः एव कटाक्षितः. कटाक्षितः इत्युक्ते ते न अङ्गीकुर्वन्ति एव, न पश्यन्ति एव. कटाक्षितः इत्युक्ते तथा, न पश्यन्ति, स्नेहस्य स्वीकारः एव नास्ति तेषां मतानुगुणम्. केषां मतानुगुणम्?
न्यायबोधिनीग्रन्थे अथवा नव्यमदोपन्यासे.
हा, इत्युक्ते स्नेहः प्रत्यक्षग्राह्यः नास्ति इति कृत्वा.
अतः तेषां मते स्नेहः नास्ति इति वा?
सत्यं, स्नेहमेव निराकृतवन्तः इति.
तथा च स्नेहस्य जलमात्रम्.
एकनिमिषः, अन्य कोऽपि पठतु, यतोहि बहु किमपि न पठितवन्तः, करपत्रे अपि किञ्चिदेव अस्ति. प्रायः राजेन्द्र महोदय पठति वा? अन्म्यूट् करोमि. अग्रे महोदय.
पुस्तके एव,
पुस्तके.
तथा च स्नेहस्य जलमात्रवृत्तित्वस्य प्राचीनैः स्वीकारे अपि तस्य चक्षुरादीना अग्रहणात् तस्य सत्त्वे एव नवीनानां विवादात् जललक्षणत्वेन न सः निर्दिष्टः, किन्तु त्वग् इन्द्रियग्राह्य सर्वजनसाक्षिकः शीतस्पर्श एव निर्दिष्टः इति उक्तं जललक्षणं शीतस्पर्शवत्यः आपः इति प्रकारस्तु सुगमोऽपि तदृशिकेन मया प्रदर्शितः तथा च स्नेहस्य जलमात्रवृष्टित्वस्य प्राचीनैः प्राचीनानां प्राचीनानां तु अङ्गीकुर्वन्ति जलमातृवृत्तित्वं स्नेहस्य जलमातृवृत्तित्वम् अङ्गीकुर्वन्ति तथापि यत् चक्षुणा चक्षुरादीनां यः स्नेहः न ग्राह्यते तस्य स्वेत् एव नवीनानां विवादात् तत्कारणात् एव नवीनानां विवादः अस्ति तत् यदि तस्य चक्षुरादीनां ग्रहणं न भवति तत्कारणतापि जललक्षणत्वेन न सः निर्दिष्टः तत् न अवगच्छामि.
हा प्रारम्भ आरम्भतः किञ्चित् पठतु. तथा च स्नेहस्य जलमात्रवृत्तित्वस्य
प्राचीनैः स्वीकारे अपि प्राचीनन्यायिकाः स्वीकुर्वन्ति स्नेहः तु जलमात्रवृत्तित्वम् अस्ति तत् ते अङ्गीकुर्वन्ति तत् स्नेहः तु जलमात्रवृत्तित्वम् अस्ति प्राचीनैः स्वीकुर्वन्ति तथापि तस्य चक्षुरादीनाम् अग्रहणात् स्नेहः यथा जलमातृवृत्तित्वं वृत्तित्वे अस्ति तत् चक्षुरादीनां न ग्राह्यते स्नेहः तस्य स्त्वे एव तत्कारणात् एव न्यायिकाः विवादः कुर्वन्ति तथा न ते न मन्यते जलमातृवृत्तित्वम्.
अत्र एकनिमिषः पञ्चघटितपदद्वयम् अस्ति अस्तु स्वीकारेपि इत्युक्ते यद्यपि तथापि तद् भवान् उक्तवान् एव यद्यपि प्राचीनाः स्वीकुर्वन्ति तथापि तस्य कस्य
स्नेहस्य
हा स्नेहस्य चक्षुरादिना अग्रहणात् इति एतावत्पर्यन्तं दृष्टवन्तः चक्षुरादिभिः न गृह्यते अतः कारणपञ्चमी चक्षुरादिना अग्रहणात् किम् अस्ति अग्रे
तस्य सत्त्वे एव नवीनानां विवादात् तत् स्वीकुर्मश्चेत् तत् कारणात् एव नवीन न्यायिकाः विवादं कुर्वन्ति.
हा तदर्थमेव अग्रहणात् नवीनाः विवादं कुर्वन्ति तस्मात् अग्रे किं
जललक्षणत्वेन सः निर्दिष्टः तत् न आगच्छामि जललक्षणत्वेन न सः निर्दिष्टः.
अन्य का सावित्री भगिनी किञ्चित् साहाय्यं करोति वा.
आं भगिनि अत्र लिखितमस्ति यतोहि प्राचीनाः स्वीकुर्वन्ति स्नेहस्य पिण्डीभावं प्रति कारणत्वं तथापि ते जललक्षणे तस्य दलं न स्थापितवन्तः ते केवलम् एतदेव उक्तवन्तः यत् शीतस्पर्शवत्यः आपः यतोहि स्नेहः तु जलमात्रवृत्तिः इति लिखितमस्ति तथापि ते अन्यद्दलं न स्वीकृतवन्तः किमर्थं चेत् अत्र लिखितमस्ति चक्षुरादीनाम् अग्रहणात् इत्युक्ते साधारणतया प्रत्यक्षेण न ज्ञातुं शक्नुमः स्नेहः अस्ति इति तदर्थं ते न स्थापितवन्तः इति.
तस्य सत्त्वे नवीनानां विवादात् तदर्थं जललक्षणे तस्य उपयोगः नास्ति. कस्य? स्नेहस्य. स्वगिन्द्रियग्राह्यः सर्वजनसाक्षिकः इत्युक्ते
किन्तु स्वगिन्द्रियग्राह्यः सर्वजनकसाक्षिकः शीतस्पर्शवत्यः इत्युक्ते शीतस्पर्शः गुणः अस्ति यस्य यः सर्वैः ज्ञायते त्वगिन्द्रियेण ग्राह्यः अपि च सर्वैः ज्ञायते इत्यस्य गुणस्य गुणत्वम् इत्युक्ते शीतस्पर्शः तु त्वगिन्द्रियेण ग्राह्यते अपि च सर्वैः अनुभूयते अपि च सर्वसम्मतः अस्ति. तदर्थं शीतस्पर्शः एव उक्तम् अस्ति जलस्य लक्षणे इति.
त्वगिन्द्रियग्राह्य साक्षिकः इत्युक्ते प्रत्यक्षः भवति त्वचा. तादृशगुणः शीतस्पर्शः, सः एव निर्दिष्टः अस्ति जललक्षणे इति. अस्तु, समीचीनं. बुद्धं वा राजेन्द्रमहोदय? अधुना किञ्चित् वदति वा स्वस्य शब्दैः?
आम् निश्चयेन. यथा जललक्षणं स्थले तत्र केवलं शीतस्पर्श वत्यः आपः तथा एव उक्तम् आसीत्. तत्र स्नेहस्य कोऽपि निर्दिष्टः तत्र न आगच्छति तस्मिन् सन्दर्भे. तथा तत्कारणात् ते नवीनानां वदन्ति स्नेहः जले जलमात्रवृत्तित्वम् अस्ति तत्, परन्तु तत् जललक्षणस्य तत्र शीतस्पर्शवत्यः आपः तत् स्थले तत् स्नेहस्य कोऽपि विवरणं न आसीत् तत्कारणात् ते न अङ्गीकुर्वन्ति तत् स्नेहः जलमात्रवृत्तित्वम् अस्ति. यथा जलमा शीतस्पर्शवत्य आपः तत्तु त्वगिन्द्रियेण ग्राह्यते साक्षिकः अस्ति, तत् प्रत्यक्षं ज्ञायते, परन्तु स्नेहः तादृशी न ज्ञायते तत्.
हा, स्नेहः न प्रत्यक्षः अस्ति, अपि च नवीनानां विवादः अस्ति तस्य विचारे इति कृत्वा जललक्षणे न स्थापितः इति. अस्तु, इतः अग्रे करपत्रम्
भगिनी तत्रापि वयं चर्चितवन्तः किल ये ये लक्षणाः सन्ति तत्सर्वं लक्षणे वक्तव्यम् इति किमपि नियमः नास्ति इति.
सत्यं
इत्युक्ते यदा यद्यपि स्नेहः इति जलस्य लक्षणे न उक्तं तथापि तत्र किमपि दोषः नास्ति.
दोषः तु नास्ति, सत्यं. किन्तु जलमात्रवृत्तिः इति उक्तं खलु, जलस्य विशेषगुणः. यथा ज्ञानाधिकरणमात्मा इति वदामः तथापि जानीमः सुखमपि विशेषतया आत्मनि एव वर्तते. हा, इति कृत्वा सुखमपि उपयुज्य अथवा कृति द्वेष इत्यादिकम् उपयुज्य आत्मनः विवरणं कर्तुं शक्यते. तद्वदेव स्नेहम् उपयुज्य जलस्य विवरणं किमर्थं न स्यात् इति प्रश्नः.
मम चिन्तनमस्ति तत्तु गौणगुणः इति. इत्युक्ते शीतस्पर्शवत्यः मेन् गुणः, स्नेहः तु सेकेण्डरी गुणः इति.
इति स्यात्, किन्तु मम विचारः आसीत् वस्तुतः स्नेहः अनुमानेन ज्ञातः खलु. शीतस्पर्शस्य तु प्रत्यक्षज्ञानम् अभवत् त्वगिन्द्रियेण.
यद् यद् ज्ञानं प्रत्यक्षमस्ति तद् निश्चितम् इति कृत्वा
प्रायः. हा, इति मम चिन्तनमासीत्, किन्तु प्रायः करपत्रे इतोपि विवृतं स्यात्. अपि च ज्ञानाधिकरणमात्मा इत्यस्य विषये अहं यद् उक्तवती, तत्रापि कश्चन नियमः अस्ति, सुखं वा दुःखं वा सर्वदा न भवति आत्मनि, किल ज्ञानं तु सर्वदा भवति एव. अथवा धर्म यत्किमपि यः कोऽपि गुणः सर्वदा स्यात् इति अपि एकः निकषः स्यात्, न जाने, किन्तु करपत्रं पश्येम किञ्चित्. अस्तु, इतः अग्रे वर्धिनि भगिनी करपत्रं पठति वा, स्नेहस्य प्रत्यक्षग्राह्यत्वम् इति.
आं भगिनि, प्रश्नः उदेति यत् स्नेह नाम गुण गृह्यते इन्द्रियैः, यद्यपि विद्याधुर्यां लिखितम् अस्ति स्नेह न चक्षुरादिभिः ज्ञातुं शक्य, चक्षुषा त्वया त्वचा वा अवधानविशेषे अपि एकाग्रे ऐकाग्र्ये अपि न स्नेहः गृह्यते इति पिण्डीभावरूपकायविशेषेण न अनुमातव्यः भवति. यद्यपि विद्याधर्याम् एवं लिखितम् अस्ति, तथापि न्यायशास्त्रसम्बन्धप्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं नास्ति. ग्रन्थेषु स्नेहः इन्द्रियग्राह्यः इति उक्तं सर्वत्र. प्रश्नः यत् स्नेह नामकगुणः गृह्यते इन्द्रियैः इति प्रश्नः अस्ति. स्नेहः इति गुणः इन्द्रियैः गृह्यते न गृह्यते वा
इति प्रश्नः.
यद्यपि विद्याधर्यां लिखितमस्ति स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः, चक्षुषा न ग्राह्यं त्वचा वा अवधानविशेषे अपि एकाग्र्ये अपि न स्नेहः गृह्यते
इति इदानीं पठितवन्तः.
गम्भीरचिन्तनेन अपि न ग्राह्यते.
सत्यं भगिनि, समीचीनम्.
पिण्डीभावरूपकार्यविशेषेण सः अनुमातव्यः, अनुमानमेव भवति पिण्डीभावरूपकार्यविशेषेण. यद्यपि विद्याधर्याम् एवं लिखितम् अस्ति, तथापि न्यायशास्त्रसम्बन्धप्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं नास्ति. ग्रन्थेषु स्नेहः इन्द्रियग्राह्यः इति उक्तं सर्वत्र. यद्यपि प्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं
यद्यपि विद्याधर्याम् एवं लिखितं यद्भवती उक्तवती अधुना, तत्तु विद्याधर्याः चिन्तनम् अस्तु. हा, यद्यपि विद्याधर्यां तथा लिखितं, तथापि
न्यायशास्त्रसम्बन्धप्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं नास्ति. प्रमुखग्रन्थेषु न लिखितम् अतीन्द्रियत्वम् इति.
इत्युक्ते स्नेहः, हा, स्नेहः इन्द्रियग्राह्यः इति उक्तमस्ति. अस्तु,
ग्रन्थेषु स्नेहः इति इन्द्रियग्राह्यः इति उक्तं सर्वत्र.
हा, सत्यम्. अस्तु, अग्रे पठतु.
सङ्ख्यादिश्लोकमस्ति,
श्लोकं पठतु.
सङ्ख्यादिः अपरत्वान्तो द्रवत्वं स्नेहः एव च. एते तु द्वीन्द्रियग्राह्यः ग्राह्याः
इति
कायिकावलिग्रन्थे ग्रन्थ अस्ति खलु.
हा, इति कारिकावलि इति एकः ग्रन्थः, तत्र किमस्ति इति अग्रे पश्येम.
सङ्ख्यादि,
हा, अन्यः कोऽपि पठेत् अग्रिमपरिच्छेदम्. अजितमहोदय, अस्ति वा अजितमहोदय? अजित् महोदय अस्ति किम्? अस्तु, पुष्पा भगिनी अग्रे.
संख्या परिमाणं पृथक्त्वं संयोगः विभागः परत्वम् अपरत्वम् इति यावत् तदा द्रवः च एते गुणाः इन्द्रियग्राह्याः एते गृह्यन्ते चक्षुषा त्वचा च. दिनकरी इति टीकायां च दत्तम् अस्ति यत् संख्यादि अपरत्वान्तौ द्रवत्वं स्नेह एव च इति मूले स्नेहपदं वेगस्य अपि उपलक्षकम्. स्नेहशब्देन वेगोऽपि उपलक्षणीयः वेगः. तर्हि अनेन स्पष्टं भवति यत् प्रमुखग्रन्थेषु स्नेहः इति गुणः इन्द्रियग्राह्यः प्राचीनग्रन्थेषु नवीनग्रन्थेषु च अयमेव सिद्धान्तः. अतः विद्याधर्यां स्नेहस्य अति इन्द्रियत्वं ग्रन्थकारस्य
स्वकीयमतम्
इति भाति. नाम अत्र विद्याधर्यां मतभेदः प्रकटः अस्ति. संख्यापरिमाणं पृथक्त्वं संयोगः विभागः परत्वम् अपरत्वम् इति द्रवत्वं स्नेहः च तदा द्रवत्वं स्नेहः च गुणाः इन्द्रियग्राह्याः.
द्वीन्द्रियग्राह्याः संख्यादिषु पुस्तके पुस्तके संख्यादिषु इति उक्तं खलु. संख्यादिषु संख्यादयः गुणः एते गुणाः संख्यापरिमाणं पृथक्त्वं संयोगः विभागः परत्वम् अपरत्वं ततः अग्रे स्नेहः अपि उल्लिखितः द्रवत्वम् अपि च स्नेहः एते द्वीन्द्रियाः. किमर्थं
चक्षुषा
त्वचा गृह्यन्ते.
दिनकरी इति टीकायां दिनकरी टीकायां तु व्याकरण
दिनकरी इति एका टीका तावदेव
न्यायशास्त्र लिखितं च दत्तम् अस्ति यत्
संख्यादिः अपरत्वान्तो
द्रवत्वं स्नेह एव च. संख्यादिः अपरत्वान्तो द्रवत्वं स्नेह एव च. तत्तु संख्यापरिमाणः एतानि द्रवत्वं स्नेह एव इति मूले स्नेहपदं वेगस्य अपि उपलक्षणं लक्षकं. वेगः कथम् आयाति अत्र?
कथञ्चित् आगच्छति, ममापि प्रश्नः आसीत्. स्नेहपदेन वेगः अपि लक्षितः. वेगः तु संस्कारः, परन्तु ते तथा सम्बन्धः नास्ति, भिन्नभिन्नगुणं. किन्तु ते वदन्ति स्नेहपदेन वेगस्यापि उपलक्षणम् इति.
सम्बन्धः नास्ति.
हा, नास्ति.
स्नेहशब्देन वेगः अपि उपलक्षणीयः इदानीं वदतु न तर्हि अनेन स्पष्टं भवति यत् प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वि इन्द्रियग्राह्यः तर्हि अनेन स्पष्टं भवति प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वि इन्द्रियग्राह्यः इति स्पष्टः स्पष्टं भवति प्राचीनग्रन्थेषु नवीनग्रन्थेषु च अयम् एव सिद्धान्तः तेषु अपि प्राचीनग्रन्थेषु नवीनग्रन्थेषु इति अत्रापि एवमेव सिद्धान्तः द्वीन्द्रियग्राह्याः इति अतः विद्याधर्यां स्नेहस्य अतीन्द्रियत्वं ग्रन्थकारस्य स्वकीयमतं स्वकीयमतं तु
स्वस्य मतं
कस्य मतः एक एक
ग्रन्थकारः स्वयमेव तथा वदति प्रायः प्राचीनाः अपि च नवीनाः एतेषां सिद्धान्तानुगुणं स्नेहः द्वीन्द्रियग्राह्यः विद्याधर्यां यत् सूचितं तत् ग्रन्थकारस्य मतम् इति भाति अतः
नाम अत्र विद्याधर्यां मतभेदः प्रकटः अस्ति
हा समीचीनम् इति अस्ति अस्तु इतः अग्रे गच्छेम जयन्ति भगिनि
एकनिमिषः
अग्रे भवान् पठतु अस्तु जयन्ति भगिनि
सिद्धान्ति सामान्यन्यायशास्त्रे स्नेहः चक्षुषा दृश्यते त्वचा च स्पृश्यते अयं स्नेहः च जलमात्रवृत्तिः कारिकावल्यां यत् यत् श्लोकम् अस्ति तस्य आधारेण एव इदं सम्भाषणम् अस्ति इति मन्ये सिद्धान्ति वदति अतः स्नेहः द्वीन्द्रिय ग्राह्यः इत्युक्ते चक्षुषा वा त्वचा वा ग्राह्यते इति अपि तु स्नेहस्य जलमात्रवृत्तित्वम् इति तस्य वाक्यम् अस्ति प्रतिपक्षी वदति अत्र स्वाभाविकप्रश्नः उदेति यत् जले किं दृश्यते यत् स्नेहनामकं स्यात् प्रतिपक्षी यस्य मतं भिन्नम् अस्ति सः वदति जले किं दृश्यते यत् स्नेहनाम कथं दृश्यते इत्येव तस्य प्रश्नः इति मन्ये
सत्यं
जले स्नेहः अस्ति इति भवतः वाक्यं चेत् कथं निरूप्यते वा कथं तस्य प्रमाणं किम् इति
सत्यं सत्यम् इति प्रतिपक्षे पृच्छति अस्तु अग्रे भगिनि
सिद्धान्ति यथा घटे घटत्वं दृश्यते घटकम् अस्माभिः अनुभूयते यदि घटे घटत्वं न गृह्यते तर्हि घटान्तरं दृष्टे सति कथं वा ज्ञायते अयं घटः इति अनेन प्रमाणमस्ति यत् घटत्वम् इन्द्रियैः गृह्यते तथैव च द्रवत्वं चक्षुषा दृश्यते किञ्चन जलं न स्रवति चेदपि तस्य दर्शनेन ज्ञायते यत् इदं जलं द्रवं सम्यक् परीक्षणं भवति पशूनां द्वारा यतोहि पशुः परिशीलशाली नास्ति पशुः किमपि जानाति चेत् आधिक्येन इन्द्रियैः जानाति न तु अनुमानेन अस्तु तर्हि सिद्धान्ती वदति दीर्घरूपेण इत्युक्ते प्रतिपादयति कथं स्नेहस्य ज्ञानं भवति स्नेहः जले अस्ति इति इत्यस्य ज्ञानं कथं भवति इति यथा घटे घटत्वं वर्तते घटत्वम् इत्यस्य विद्यमानेन एव अस्माकं ज्ञानम् उदेति अस्माकम् आत्मनि ज्ञानम् उदेति यत् अयं घटः इति घटत्वम् इति कश्चन स्वभावः अस्ति, धर्मः अस्ति, येन अस्माकं आत्मनि ज्ञानम् उदेति यत् अयं घटः इति. पुनः पुनः द्रवत्वं, द्रवत्वविषये अपि
अत्र किम् उक्तमस्ति, घटे घटत्वं न गृह्यते चेत् तर्हि किम्?
तर्हि घटान्तरं दृष्टे सति कथं वा ज्ञायते अयं घटः इति. अन्यत् किमपि दर्शनेन तत्र घटत्वं नास्ति चेत् कथं ज्ञायते यत् अयं घटः वा न इति, खलु भगिनि?
हा हा हा, इत्युक्ते एकम् उदाहरणम् अस्माभिः दृष्टं खलु, गवाक्षात् एकां गां पश्यति बालकः.
आम् आम्.
अपरं गां, हा अपरं गां दृष्ट्वा अपि इयं गौः इति वदति, किमर्थं? सः गोत्वं जानाति इति, खलु? तद्वदेव घटत्वं गृह्यते चक्षुषा, इन्द्रियैः गृह्यते.
तर्हि घटत्व किं किमस्ति?
हा वदतु भगिनि.
कथं किं भगिनि
वदतु?
अनेन अनेन प्रमाणम् अस्ति यत् घटत्वम् इन्द्रियैः गृह्यते, इत्युक्ते घटत्व घटत्वज्ञानम् अस्ति घटदर्शनेन, घटत्व घटत्व आधारेण घटत्वज्ञानस्य आधारेण एव घटम् अभिज्ञायते, घटः अभिज्ञायते, अतः घटत्वम् अपि इन्द्रियैः ग्राह्यते इति. तथैव च द्रवत्वं, द्रवत्वं चक्षुषा दृश्यते, जले विद्यमानं द्रवत्वम् अपि तादृशमेव, इत्युक्ते तस्य ग्रहणं भवति चक्षुषा इति. किञ्चन जलं न स्रवति चेदपि यत्र द्रवत्वं न दृश्यते, यथा करका इति वा तत्र उदाहरणं, तत्रापि जलस्य द्रवत्वं न दृश्यते,
इत्युक्ते जलं न स्रवति चेदपि करका इति न भवेत्, परन्तु यत्र कुत्रापि जलं स्थिरम् अस्ति तत्रापि तस्य दर्शनेन जानाति खलु पशुः जलं द्रवम् अस्ति इति. इन्द्रियैः ज्ञातुं शक्यते इति, तावदेव द्रवत्वम् इति गुणः, यतोहि पशुः परिशीलशाली नास्ति, चक्षुषा अथवा इन्द्रियैः यत् प्रत्यक्षं भवति तदेव.
परन्तु तत्र प्रायः विषयः अस्ति यत् पशवः प्रत्यक्षेन एव ज्ञानं
प्राप्नुवन्ति इति,
प्राप्नुवन्ति न तु अनुमानेन. अतः स्थिर जलं स्थिरम् अस्ति चेदपि तत्र चक्षुषा वा स्पर्शनेन ते जानन्ति यत् द्रवत्वम् अस्ति, अतः तत्र न गच्छामः.
समीचीनं, हा इति वार्ता, इत्युक्ते द्रवत्वं चक्षुरिन्द्रियग्राह्यम् इति मुख्यविचारः अत्र. प्रतिपक्षिणः किम् आसीत् अभिप्रायः, कथं दृश्यते स्नेहः इति, खलु? तस्य विषये विवरणं दातुं प्रथमतया द्रवत्वस्य विषये सिद्धान्ती वदति इति. अस्तु, उदाहरणं पश्येम. अत्र अजितमहोदय अधुना पठति वा अग्रे? अजितमहोदय, हा हा, अधुना श्रूयते. कुक्कुरः इत्यस्मात् आरभ्य.
कुक्कुरः सरोवरं दृष्ट्वा जानाति यत् स्वस्य पादं सरोवरे स्थितस्य जलस्य उपरि स्थापयितुं न शक्यते. किमर्थम् इति चेत् सरोवरं दृष्ट्वा जानाति यत् सरोवरे यत् जलम् अस्ति तत् द्रवम्. भाषाज्ञानं नास्ति तस्य, किन्तु इदं जलं धनरूपं नास्ति, मम पादाः तस्य उपरि स्थापयितुं न शक्नोमि इति जानाति सः. कुक्कुरः न अवगच्छति यत् जले द्रवत्वनाम गुणः अस्ति, साधारणजनाः अपि न जानन्ति. किन्तु यथा साधारणजनः, कुक्कुरः अपि अवगच्छति यत् इदं जलं द्रवं, द्रवे द्रवत्वम् इति केवलं शास्त्रीयशैली विचारः, किन्तु सः एव समानः, अतः द्रवं प्रत्यक्षं द्रवत्वमिति द्रवत्वमपि तथैव प्रत्यक्षम्। अत्र प्रत्यक्षज्ञानं प्रत्यक्ष दृष्टि कथा कथम् इति एक उदाहरणसहितं वदति। कुक्कुरः यथा जले तस्य पादं न स्थापयति, किमर्थं सः न स्थापयति इत्युक्ते सः जानाति एतद्द्रवत्वमेव तत्र पादं न स्थापयितुं शक्यते इति। तथा जनाः अपि जानन्ति एव, तदेव कारणात् द्रवं प्रत्यक्षं द्रवत्वमपि तथैव प्रत्यक्षम् इति।
हा समीचीनं महोदय, इति सारांशः। इदं जलं घनरूपं नास्ति इति इत्युक्ते किं? घनरूपम् इत्युक्ते किम्?
घनरूपम् इत्युक्ते इत्युक्ते यथा पृथ्वी अस्ति, द्रवत्वं नास्ति, यत्र यत्र द्रवत्वं नास्ति तत्र प्रायः घनरूपमेव।
समीचीनम्, इति सः जानाति दर्शनेन एव खलु कुक्कुरः अथवा यः कोऽपि प्राणिः, तदर्थं पादं न स्थापयति, अवगच्छति एव। किमर्थम् अवगच्छति? यतोहि चक्षुषा पश्यति, इन्द्रियैः गृह्यते द्रवत्वम् अपि च द्रवमपि। द्रवम् इत्युक्ते यद् यत्किमपि वस्तु यस्मिन् द्रवत्वम् अस्ति तादृशवस्तु, तस्मिन् द्रवत्वम् अस्ति इति कुक्कुरः जानाति। इत्युक्ते अन्ततो गत्वा द्रवम् अपि च द्रवत्वम् उभयोः प्रत्यक्षज्ञानं जायते इति विचारः। अस्तु, तर्हि एतद् ज्ञात्वा अग्रिमसप्ताहे वदतु महोदय।
भगिनी, प्रायः तत् प्रत्यक्षदृष्ट्या प्रायः केवलं नास्ति खलु, तद् अनुभवरूपेण एव प्रायः प्रथमे कुक्कुरः पादं तत्र स्थापयित्वा तत्र अनुभवति तदनन्तरमेव।
इति सत्यमेव, किन्तु
संस्कार
अनुभवेन अपि इति सत्यं, किन्तु एकः कुक्कुरः इति त्यजतु, इदानीं मनुष्यः नदीं पश्यति खलु, अथवा कुक्कुरः कुत्र अथवा नदीं वा सरोवरं वा पश्यति, तत्र मनुष्यः जानाति यत् तत्र द्रवत्वम् अस्ति इति खलु, विना स्पर्शेण अपि जानाति
जानाति तद् प्रायः पूर्वसंस्कार कारणादेव खलु। उदाहरणार्थं मनुष्यः एक नूतनद्रव्यं पश्यति इति चिन्तयतु, तत्र कथं द्रव्यम् इत्युक्ते द्रवत्वरूपद्रव्यं, नूतनजलं वा किञ्चित् नूतन पश्यति चेत् तत्र दृष्ट्या एव
द्रवत्वं कुत्र अस्ति? पृथ्वी, जले, तेजसि, नूतनद्रव्यं पश्यति
पृथ्वी, जले, तेजसि।
हा, जलं न, प्रायः अन्यत् किमपि लिक्विड् पश्यति इति चिन्तयतु इति एव वा भवतः विवक्षा?
आमाम्।
हा, तत्रापि द्रवत्वम् आनुभविकं खलु, जलं विना अन्यत् किमपि लिक्विड् इति चिन्तयतु, तत्रापि द्रवत्वं द्रष्टुं शक्नोति, इन्द्रियेण द्रवत्वं गृह्यते किल, प्रथमवारं पश्यति चेदपि चक्षुषा गृह्यते खलु द्रवत्वम्। हा, इत्येव वार्ता, द्रवत्वं प्रत्यक्षं भवति, द्रवमपि प्रत्यक्षं भवति। द्रवम् इत्युक्ते यत्किमपि लिक्विड् इति यद् भवान् उक्तवान्, नूतनपदार्थः, तदपि प्रत्यक्षं भवति प्रथमवारम् अपि, द्रवत्वमपि तथैव प्रत्यक्षं भवति चक्षुषा। अत्र प्रायः संस्कारस्य विषयः किमपि नास्ति इति चिन्तयामि. प्रथमवारं पश्यति चेदपि तत्र द्रवत्वम् अस्ति चेत् साक्षात् दृश्यते एव चक्षुषा.
अस्तु भगिनि,
हा इति अस्ति. अस्तु तर्हि इतः अग्रे स्नेहस्य विषय आयाति. अत्र कोऽपि प्रश्नः वा कस्यचित्? अस्तु, प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः.
धन्यवादः.
धन्यवादः. धन्यवादः. शुभरात्रिः.